परमात्मने नमः। अथ पञ्चदशोऽध्यायः पुरुषोत्तमप्राप्तियोगः। श्रीभगवानुवाच, ऊर्ध्वमूलमधःशाखम् अश्वत्थं प्राहुरव्ययं छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित्, अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः। गुणप्रवर्था विषयप्रवालाः, अधश्च मूलान् यनुसन्ततानि। कर्मानुबन्धीनि मनुष्यलोके, न रूपमस्येह तथो फलभ्यते। नान्त्वो न चादिर्न च सम्प्रतिष्ठा, अश्वत्थमेनं सुविरूढमूलम्। असङ्गशस्त्रेण दृढेन चित्वा, ततः पदं तत्परिमार्गितव्यम्। यस्मिङ्गता न निवर्तन्ति भूयः, त्वमेव चाद्यं पुरुषं प्रपद्ये। यतः प्रवर्तिः प्रसृता पुराणि, निर्माणमोहाजितसङ्गदोषाः। अध्यात्मनित्या विनिवृत्तकामाः, द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैः। गच्छन्त्यमूढाः पदमव्ययं ततः, न तद्भासयते सूर्यः। न शशाङ्को न पावकः, यद्गत्वा न निवर्तन्ते। तद्धाम परमं मम, ममैवांशो जीवलोके। जीवभूतः सनातनः, मनःषष्ठानि इन्द्रियाणि प्रकृतिष्ठानि कर्ष्यति। शरीरं यदवाप्नोति, यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि सम्याति, वायुर्गन्धानि वासयात्। श्रोत्रं चक्षुस्पर्शनं च, रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते। उत्क्रामन्तं स्थितं वापि, भुञ्जानं वागुणान्वितं। विमूढानानुपश्यन्ति, पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनं, पश्यन्त्यात्मन्यवस्थितं। यतन्तोऽप्यकृतात्मानः, नैनं पश्यन्त्यचेतसः। यदादित्यगतं तेजः, जगद्भासयतेऽखिलं। यच्चन्द्रमसि यच्चाग्नौ, तत्तेजो विद्धि मामकं। गामाविश्य च भूतानि, धारयाम्यहमोजसा। पुष्णामि चौषधी सर्वाः, सोमो भूत्वा रसात्मकः। अहं वैष्णवरो भूत्वा, प्राणिनां देहमाश्रितः। प्राणापानसामायुक्तः, पचान्यनं चतुर्वितं। सर्वस्य चाहं हृदि सन्निविष्टः, मत्तस्मितिज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव विद्यः, वेदान्तकृद्धविदेव चाहं। द्वाविमौ पुरुषौ लोके क्षरक्षाक्षर एव च क्षरक्षरवाणि भूतानि कूथस्थोक्षर उच्यते उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्यः विभर्त्यव्यय ईश्वरः यस्मात् शरमतीतोऽहम् अक्षरादपि चोत्तमः एथोऽस्मि लोके वेदे च पुरुषोत्तमः यो मामेवमसम्मुडः जानति पुरुषोत्तमम् स सर्वविद्भजति माम् सर्वभावेन भारत इति गुह्यतमं शास्त्रम् इति मुक्तं मयानग इत्तद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॐ तत्सदिति श्रीमद्भगवद्गीतास्तु उपनिषस्तु ब्रह्मविद्यायं योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः।